सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते। नमस्कारः प्रियाः श्रोत्री वृन्दाः, संस्कृत साप्ताहिकी इत्येतस्मिन् कार्यक्रमे भवतां सर्वेषां हार्दिकं स्वागतम् अभिनन्दनं च। आमोदकरं नूतनम् अङ्कमादाय उपस्थिता अस्मि अहं कार्यक्रमस्य उद्घोषिका ऋचा झा। प्रियाः श्रोतारः, सुभाषितमस्ति अस्य कार्यक्रमस्य आधारम्। आगच्छन्तु तर्हि शृण्मः अद्यतनं सुभाषितं, तच्च सुस्वरेण प्रस्तौति पुनीता त्रिपाठी।
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति। अर्थात जिस मनुष्य में उत्साह नहीं होता, जो दीनहीन और शोक से व्याकुल रहता है, उसके सभी कार्य और उद्देश्य नष्ट हो जाते हैं। ऐसा व्यक्ति धीरे धीरे कष्ट और विपत्तियों में फंस जाता है। अर्थात जीवन में सफलता के लिए उत्साह, धैर्य और सकारात्मक मन अत्यंत आवश्यक है।
अहो सम्यक्। प्रिय मित्राणि, अग्रे सरामः सम्प्रति प्रसंग प्रभागं प्रति, यत्र अद्य दुर्गा मातुः भावपूर्णं स्तवनं विदधाति मम सहयोगी गणेश हेगडे।
देवी प्रपन्नार्ति हरे प्रसीद प्रसीद मातर जगतो खिलस्य प्रसीद विश्वेश्वरी पाहि विश्वं त्वमीश्वरी देवी चराचरस्य आधारभूता जगतस्त्वमेका महीस्वरूपेण यतस्थितासि अपां स्वरूपस्थितया त्वयैतदाप्यायते कृष्णमलङ्घ्य वीर्ये त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया सम्मोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः विद्या समस्तास्तव देवि भेदाः स्त्रियः समस्ता सकला जगत्सु त्वयैकया पूरितमम्बयैतत् का ते स्तुतिस्तव्यपरा परोक्तिः।
अयि संस्कृतानुरागिणः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विकः वृत्तान्तः। साम्प्रतं संसारगताः साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति अस्मदीया सहयोगिनी रिंकू जोशी।
प्रधानमन्त्री नरेन्द्र मोदी नवदिल्ल्यां प्रायः 500 कोट्यधिक 33,000 रूप्यकाणां बहुविध विकासात्मक परियोजनानां उद्घाटनं शिलान्यासं च विहितवान्। अन्ताराष्ट्रिय महिला दिवसस्य उपलक्ष्ये राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् यदा महिलाभ्यः अवसरं समर्थनं च दीयते तदा ताः प्रत्येकस्मिन् क्षेत्रे उत्कृष्टतां प्राप्तुं शक्नुवन्ति इति। नेपालदेशस्य संसदीय निर्वाचनेषु राष्ट्रिय स्वतन्त्र पार्टीति दलं पुरातन दलानि पराभूय प्रचण्ड बहुमतेन सह आगामि सर्वकारं निर्मातुं सज्जो वर्तते। केन्द्रीय मन्त्रिमण्डलेन अद्य जल जीवन मिशन इति अभियानं 28,000 दिसम्बर मासं यावत् वर्धयितुं स्वीकृतिः प्रदत्ता। एलपीजी इत्यस्य उत्पादनं वर्धयितुं गृहोपभोक्तृभ्यः, चिकित्सालयेभ्यः, शिक्षण संस्थानेभ्यः च अस्य आपूर्तिं प्रथमं प्रदातुं च तैल निर्मातृ संस्थानैः विशिष्टाः पदक्षेपाः उत्थापिताः सन्ति। लोकसभायां लोकसभाध्यक्षम् ओम बिरला इत्येतम् पदच्युतं कर्तुं प्रस्तावे चर्चा समारब्धास्ति। सर्वोच्चन्यायालयेन भारतस्य निर्वाचन आयोगः, पश्चिमबङ्गस्य सर्वकारः च राज्ये निर्वाचक सूच्यां प्रचलिते विशिष्ट गहन संशोधने संलग्नानां न्यायिक अधिकाराणां कृते पूर्ण व्यवस्थात्मक समर्थनं दातुम् आदिष्टौ। प्रधानमन्त्रिणा केरलस्य एर्नाकुलम नगरे प्रायः 11,000 कोटि रूप्यकाणां विविधाः विकास परियोजनाः राष्ट्राय समर्पिताः। भारते प्रथमवारं परोक्ष इच्छा मृत्योः अनुमतिः प्रयच्छता उच्चतम न्यायालयेन एकस्य 32 वर्षीयस्य पुरुषस्य कृते कृत्रिम जीवन रक्षक प्रणाल्याः निष्कासनाय अनुमतिः प्रदत्ता। यः विगत 12 वर्षेभ्यः कोमा इति अचेतनावस्थायां वर्तते।
मान्याः श्रोतारः, अद्य ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे अस्माभिः साकं संवादाय उपस्थितो अस्ति निधिना सह केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः श्रीनिवास वरखेड़ी वर्यः।
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रदं परे, कृतमेवास्य जानन्ति स वै पण्डित उच्यते। सुहृदः विदित चरमेव हि भवतां, सतां हि सङ्गः सकलं प्रसूते इति। सज्जनाः हि ज्ञानमार्गस्य परम निदान भूताः भवन्ति, तस्मादेव कारणात् तेषां माध्यमेन वयं स्वात्मनः श्रोतृवृन्दांश्च उपकर्तुं प्रभवामः। अतः आगच्छन्तु ज्ञान विज्ञान निदर्शिन्यां प्रभागे महाजनानां प्रत्यक्ष वचनम् अवधारयामः।
प्रियाः श्रोतारः, अभिवादये। अद्यास्माभिः साकं ज्ञान विज्ञान प्रभागे वेविद्यन्ते केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतयः श्रीनिवास वरखेड़ी महाभागाः। भवताम् आकाशवाण्यां प्रणति पुरस्सरम् अहं निधि झाः स्वागतं व्याचष्टे।
नमस्करोमि।
महोदयाः, प्रथमः तावत् प्रश्नः, उदात्त गुणाकरः केन्द्रीय संस्कृत विश्वविद्यालयः ज्ञान परम्परायाः नवाचारस्य च संवाहकः इति निश्चप्रचम्। BA LLB, BA सिविल सर्विसेस् इत्यादयः पाठ्यक्रमाः अवश्यं बालान् सुपन्थाः दर्शयन्ति, परं किमेते बालाः आधुनिक महाविद्यालये अधीत छात्रैः सह स्पर्धितुं क्षमेरन्?
अयं विनूतनः प्रश्नः। केन्द्रीयसंस्कृतविश्वविद्यालयः अधुना एतैः विनूतनैः बहुविषयकैः पाठ्यक्रमैः बहुविषयको विश्वविद्यालयः सञ्जातः। शनैश्शनैः संस्कृतविश्वविद्यालयः अपि नानाक्षेत्रेषु छात्रान् निर्माति। प्रसङ्गेऽस्मिन् एते छात्राः विद्यादिक्षेत्रेषु प्रविष्टाः किं तैस्सह स्पर्धितुम् अर्हन्ति इति भवत्याः प्रश्नः। मन्ये तैस्सह न केवलं स्पर्धन्ते, अपि तु तेषाम् अपेक्षया उत्तमं कार्यं ते कर्तुं प्रभवन्ति। किमर्थम्? आगामिषु दिनेषु विकसितभारतस्य प्रसङ्गे भारतीयविद्यायाः ज्ञानमपि मुख्यं भवति तत्तत्क्षेत्रेषु। एते न केवलं विधिज्ञाः भवन्ति, अपि तु विधिविषये भारतीयमूलविचारमपि ते जानन्ति। अतः एतेषां स्थानं भिन्नं भवति। आधुनिकाः छात्राः भिन्नं स्थानं प्राप्नुवन्ति, भिन्नां दृष्टिं प्राप्नुवन्ति। एते छात्राः संस्कृतज्ञाः छात्राः ये भारतीयां दृष्टिं प्राप्नुवन्ति, एतेषां कार्यमपि भिन्नं भवति। अतः अतिशेते एते तावत् अन्येभ्यः अतिशेरते इत्यहं मन्ये।
एवं महोदय, बहु समीचीनम्। भारतीय भाषा पुस्तक परियोजनायाः माध्यमेन विज्ञान गणितादि विषयाः संस्कृतभाषायाम् अनुदिश्यन्ते, पाठकाः के सन्ति? यतोहि प्रायः सर्वे अपि स्वमातृभाषायाम् अथवा आङ्ग्लभाषायाम् एव पठन्ति, तर्हि ये अधिकारिणः सन्ति ते के?
उत्तमः प्रश्नः। संस्कृतभाषायां नूतनज्ञानम् अपि अनुदितव्यं विद्यते। भाषायाः विकासः नूतनज्ञानस्य संस्पर्शेनैव भवति। कस्मिंश्चित् कालखण्डे आङ्ग्लभाषायां भारतीयाः विद्याः सामग्र्यः नासन्। के ते पाठकाः आसन्? सामग्री निर्मिता, पाठकाः निर्मिताः। अधुनापि भारतीयभाषाक्षेत्रे पाठकाः न सन्ति इति हेतोः यदि सामग्री न निर्मीयते, सामग्री नास्ति इति हेतोः पाठकाः अपि न भवन्ति। अतः सामग्री निर्मीयतां, पाठकाः उत्पत्स्यन्ते। अतः सामग्री निर्माणं पाठकाधीनं नास्ति, पाठकाः सामग्र्यधीनः सन्ति। यस्मिन् क्षेत्रे यस्यां भाषायां सामग्री वर्तते, तत्र कोऽपि पाठकः उपलभ्यते, पाठकाः निर्वास्यन्ते। अतः मन्ये संस्कृतक्षेत्रे अधुना बहवः पाठकाः सन्ति ये सम्भाषणमुखेन संस्कृतं प्रविश्य स्वस्वक्षेत्रे स्वस्वविषयेषु संस्कृतमाध्यमेन सामग्रीं पठितुम् इच्छन्ति परन्तु सामग्र्यभावात् ते पाठकाः न जाताः परन्तु इदानीं सामग्री उपलभ्यते चेत् अवश्यं ते पाठकाः सज्जा भवन्ति संस्कृतेनैव पठितुम् इच्छन्ति इति मम विश्वासः
एवम् आदौ पठनं तदनु पाठनं सम्प्रति शासनमिति धीमतां तत्र भवतां कालः अत्यावधि सारस्वत सपर्यायामेव निष्क्रान्तः सुविदितमेव अग्रिमदिनान्यपि संस्कृताय एवेति तद्विहाय अन्या कापि वार्ता अथवा आलोचनानि विद्यन्ते किम्
सम्यगेव अहम् अद्य प्रशासने वर्ते शासकस्य मे स्वधर्मो न निर्गतः पठनं पाठनं चेति तदुभयमपि अधुनापि अनुवर्तितुम् इच्छामि अनुवर्तयामि च यथावकाशं परन्तु शासनमपि कश्चित् अध्यापकस्य जीवने एकम् अवश्यं भावि अङ्गं भवति यतः गृहे यथायथं कश्चन पुत्रः भ्राता भवति भ्राता पिता भवति तदानीं शासनं गृहेऽपि करोति एवं परिवारेऽपि समाजेऽपि विद्यालयेऽपि एतत् सहजधर्मः परन्तु निवृत्तिकालः अपि सहजः पठनं पाठनं यः करोति निवृत्त्यनन्तरं पठनं पाठनं करोत्येव शासनं तात्कालिकं पठनं पाठनम् इत्यादिकं शाश्वतम् इत्यहं मन्ये परन्तु मम मनसि अन्यापि काचित् इच्छा वर्तते अहं भारतस्य नानाराज्येषु सेवाम् अकरवम् नानास्थानेषु सेवाम् अकरवम् इदानीं भारतं द्रष्टुमिच्छामि भारतस्य कोणे कोणे सामान्यजनानां जीवनम् अनुभवितुमिच्छामि मम मनसि काचित् महती इच्छा वर्तते प्रतिराज्यं प्रतिजिल्ला प्रदेशं प्रतिग्रामं गत्वा भारतं पश्यामि कदाचित् भाग्ये जीवने कदाचित् जीवने एतद् भाग्यं यदि विलिखितं स्यात् तर्हि अहं भारतयात्रां अतिगहनतया कर्तुम् इच्छामि एतत् मम कश्चन स्वप्नः
बहु समीचीनं भवन्तः स्वकीयम् अमूल्यमपि नैजं समयं कल्पितवन्तः एतदर्थं धन्यता वचांसि आविष्करणे
निधि झा महोदये आकाशवाण्याः श्रोतृभिः सह संवादं कर्तुं मम कश्चन अवसरः प्राप्तः अतः भवत्यै अहं धन्यवादम् आविष्करोमि केन्द्रीयसंस्कृतविश्वविद्यालयस्य पक्षतः मत्पक्षतश्च आकाशवाणी श्रोतारः अभिनन्दन्ते धन्यवादः
धन्यवादः
अहो समीचीनः संवादः एषः भवतां प्रेरकाणि वचनानि श्रुत्वा वयम् अतितराम् आप्लावितः अयि जागरूकाः श्रोतारः आगच्छन्तु संस्कृत दिग्दर्शन प्रभागे यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीयः सहयोगी जतिन शर्मा
संस्कृत भारती इत्यनया संस्थया पत्राचार द्वारा संस्कृत शिक्षणाय द्विवर्षीयः पाठ्यक्रमः संचाल्यते यस्य पञ्जीकरणं प्रतिवर्षं फेब्रुवरी अगस्त मासयोः कर्तुं शक्यते अस्मिन् पाठ्यक्रमे 16 वर्षादधिक वयस्काः जनाः केवलं 300 रूप्यकाणि दत्त्वा गृहे एव संस्कृतभाषाम् अधिगन्तुं शक्ष्यन्ति श्रीलालबहादुरशास्त्री राष्ट्रिय संस्कृत विश्वविद्यालये ज्योतिष विभागेन मार्च मासस्य 9-10 दिनांकयोः भारतीय ज्ञान परम्परायां ज्योतिषशास्त्रस्य उपादेयता इति विषये द्विदिवसीया राष्ट्रिय संगोष्ठी आयोजिता अस्यां संगोष्ठ्यां कुलपतेः प्रोफेसर मुरली मनोहर पाठकवर्यस्य संरक्षणे विद्वांसः ज्योतिषशास्त्रस्य महत्वं प्रासंगिकतां च प्रतिपादितवन्तः बुधवासरे केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफेसर श्रीनिवास वरखेड़ी महोदयः नवदिल्ल्यां केन्द्रीय मन्त्रिणा श्री नितिन गडकरी महोदयेन सह तस्य आवासे शिष्टाचार मेलनं कृतवान् अस्मिन् मेलने कुलपतिना मन्त्री महोदयः नागपुरे मार्च मासस्य 20 दिनांकतः 23 दिनांक पर्यन्तं आयोज्यमानाय भारतीय युवा संसद कार्यक्रमाय अतिथिरूपेण निमन्त्रितः केन्द्रीय संस्कृत विश्वविद्यालयस्य तत्वावधाने आयोजितस्य तृतीय संस्कृत ओलम्पियाड इत्यस्य राष्ट्रिय परिणामः घोषितः यत्र 34 राज्येभ्यः 14,000+ छात्रैः स्वकीया सहभागिता प्रदर्शिता अवसरेऽस्मिन् कुलपतिः प्रोफेसर श्रीनिवास वरखेड़ी महोदयः विजेतृ छात्रेभ्यः द्रव्यपुरस्कारं प्रमाणपत्राणि च घोषितवान्।
अयि बालश्रोतारः, अद्य बालवल्लरी प्रभागे मम सहयोगिन्या साधना शर्वणा प्रस्तूयते एका मनोविनोदकरा रुचिकरा च कथा।
बालाः, अद्य अहं शुम्भनिशुम्भयोः कथां श्रावयामि। पुराः काले शुम्भः निशुम्भश्च दानवराजौ आस्ताम्। तौ महाबलिनौ आस्ताम्। तौ स्वबलेन देवान् पराजितवन्तौ, स्वर्गलोकं च अधिगृहीतवन्तौ। तौ देवान् पीडयितुं प्रारब्धवन्तौ। तदा देवाः देवीं प्रार्थितवन्तः। तदा देवी दुर्गा प्रकटिता। देव्याः अनुपमं सौन्दर्यं श्रुत्वा शुम्भनिशुम्भौ ताम् विवाहाय इच्छां कृतवन्तौ। तदा दूतं देवी उवाच, यः मां संग्रामे जयति सः एव मम पतिः भविष्यति। ततः उभयोः पक्षयोः संग्रामः जातः। देवी महाशक्त्या सह युद्धं कृत्वा शुम्भस्य निशुम्भस्य च वधः जातः। एवं देवी दुर्गा देवानां रक्षणं कृत्वा अधर्मस्य विनाशं कृतवती। अत एव बालाः, सदाचारः पालनीयः।
अहो, मनोरञ्जनी ज्ञानवर्धनी च कथा एषा। अयि श्रोतारः, अग्रिमः प्रभागो अस्ति एकता द्योतकम् एकं भारतं श्रेष्ठं भारतमिति, यत्र मम सहयोगिनी सुषमा कुमारी प्रस्तौति ऐक्यभावयुतासु भाषासु कानिचन वाक्यानि। प्रथमं वाक्यमस्ति हिंदी में, चैत्र नवरात्रि हिंदुओं का एक पवित्र त्योहार है। संस्कृत भाषायां, चैत्र नवरात्रि वसंत ऋतौ मन्यते महत्वपूर्णः हिंदू धर्मस्य उत्सवः। मणिपुरी भाषा में, चैत्र नवरात्रि मणिपुर दा मखोइना पवित्र पर्व ओइ। द्वितीयं वाक्यमस्ति हिंदी भाषा में, इस पर्व में माँ दुर्गा के नव रूपों की पूजा की जाती है। संस्कृत भाषायां, एतेषु नवसु दिनेषु भक्ताः दुर्गा देवीम् उपास्यन्ते। मणिपुरी भाषा में, एहि पर्वदा मखोइना दुर्गा देवीगी पूजा तोई। तृतीयं वाक्यमस्ति हिंदी भाषा में, भक्त नौ दिनों तक व्रत रखते हैं और पूजा पाठ करते हैं। संस्कृत भाषायां, जनाः उपवासं कुर्वन्ति व्रतं च धारयन्ति। मणिपुरी में, मखोइना नुपानुपी खरा व्रत पांखी। चतुर्थं वाक्यमस्ति हिंदी भाषा में, मंदिरों में भजन आरती और विशेष पूजा होती है। संस्कृत भाषायां, मंदिरेषु विशेष पूजा भवति। मणिपुरी में, मंदिरदा आरती समसु पूजा फोकलोई। पंचमं वाक्यमस्ति हिंदी भाषाए में, यह त्योहार लोगों में भक्ति और श्रद्धा बढ़ाता है। संस्कृत भाषायां, एषः उत्सवः श्रद्धां भक्तिं सुखं जनयति। मणिपुरी में, एहि पर्वणा मखोइगी मनादा श्रद्धा अमसु भक्ति पिबा ओइ। धन्यवादः। अयं संगमः स्यात् नूनं आह्लादकरः ज्ञानवर्धकश्च। अयि श्रोतृवृन्दाः, अधुना तु कालः समायातः प्रस्थानवेलायाः। अग्रिमे सप्ताहे अस्मिन् एव काले अभिनवम् एकमङ्कमादाय पुनः उपस्थास्यामहे। तावत्पर्यन्तं भवन्तः सर्वे स्वीयजिज्ञासां प्रतिपुष्टिप्रक्रियाम् अस्मभ्यं प्रेषितुं शक्नुवन्ति। अस्माकम् ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति। अन्ते कामयामहे यद् भवद्भ्यः सर्वेभ्यः आगम्यमानं नवरात्रं शुभं भवेदिति। नमो नमः।